इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः जतिन शर्मा। आदौ मुख्य वार्ताः। प्रथमचरणस्य लोकसभानिर्वाचनार्थं सर्वाः सज्जताः समभवन्। अस्मिन् चरणे सप्तदश राज्यानाम् एवं चतुर्णां केन्द्रशासित प्रदेशानां द्व्यधिकशतसंख्याकेषु निर्वाचनक्षेत्रेषु मतदानानि भविष्यन्ति। लोकसभानिर्वाचनानां चतुर्थचरणाय अधिसूचना अद्य सम्प्रसारिता। चरणेऽस्मिन् मे मासस्य त्रयोदश दिनांके नवराज्येषु एकस्मिन् केन्द्रशासित प्रदेशे षण्णवतिः लोकसभासनेभ्यः मतदानानि भविष्यन्ति। सर्वकारेण अन्तरिक्षक्षेत्रस्य कृते शतप्रतिशतं एफडीआई अनुमति प्रदान निर्णयस्य क्रियान्वयनार्थं विदेशी मुद्रा प्रबन्धन अधिनियमान्तर्गतं संशोधित नियमाः अधिसूचिताः। कश्मीरघाट्यां गतसायं आतंकवादिभिः अनन्तनाग जनपदस्य विजबेहरा क्षेत्रस्य जबलीपोरायां एकः व्यक्तिः भुशुण्डिकया मारितः। ऋतुविज्ञान विभागेन आगामि त्रिषु दिवसेषु ओडिशायां तमिलनाडुराज्ये तटीयान्ध्रप्रदेशे पश्चिम बंगाले च प्रगाढ उष्णलहर्याः प्रभावो भविष्यतीति प्रख्यापितम्। अपि च आईपीएल क्रिकेट मालायां पंजाब किंग्स दलम् अद्य चंडीगढ़ नगरे मुंबई इंडियंस दलेन सह स्पर्धयिष्यति। अथ वार्ताः विशदीकृत्य। प्रथमचरणस्य लोकसभानिर्वाचनार्थं सर्वाः सज्जताः समभवन्। अस्मिन् चरणे सप्तदश राज्यानां एवं चतुर्णां केन्द्रशासित प्रदेशानां द्व्यधिकशतसंख्याकेषु निर्वाचनक्षेत्रेषु मतदानानि भविष्यन्ति। लोकसभानिर्वाचनस्य प्रथमचरणे पञ्चविंशत्यधिक षड्शतोत्तरैकसहस्र प्रत्याशिनः सज्जाः सन्ति। एतस्मिन् चरणे प्रचाराभियानानि गतसायं समाप्तिं गतानि। प्रथमचरणे अरुणाचलप्रदेश मेघालय मिजोरम नागालैंड सिक्किम अंडमान निकोबार द्वीपसमूह लक्षद्वीप पुडुचेरी उत्तराखंड तमिलनाडु चेत्यादिषु संसदीय क्षेत्रेषु मतदानानि भविष्यन्ति। लोकसभानिर्वाचनस्य प्रथमचरणस्य मतदानम् अतिरिच्य श्वः एतस्मिन्नेव चरणे अरुणाचलप्रदेश सिक्किमयोः नवविधानसभानिर्वाचनार्थमपि मतदानानि भविष्यन्ति। लोकसभानिर्वाचनानां चतुर्थचरणाय अधिसूचना अद्य सम्प्रसारिता। चरणेऽस्मिन् मे मासस्य त्रयोदश दिनांके नवराज्येषु एकस्मिन् केन्द्रशासित प्रदेशे षण्णवतिः लोकसभासनेभ्यः मतदानानि भविष्यन्ति। प्रत्याशिनः अप्रैल मासस्य पञ्चविंशति दिनांकं यावत् स्वीय नामांकनं दातुं शक्नुवन्ति। अत्रावसरे लोकसभानिर्वाचनस्य तृतीयचरणार्थं नामांकनप्रपूरणस्य कालः श्वः समाप्तिमेष्यति। एतस्मिन् चरणे मे मासस्य सप्तमदिनांके दश राज्येषु द्वयोः केन्द्रशासित प्रदेशयोः चतुर्नवतिः संसदीयासनेभ्यः मतदानानि भविता। लोकसभायाः कृते त्रिचत्वारिंशदधिक पञ्चशत सदस्यानां निर्वाचनार्थं चतुर्विंशत्यधिक द्विसहस्रतमस्य सामान्य निर्वाचनानि अप्रैल मासस्य एकोनविंशतिः दिनांकात् जून मासस्य प्रथमदिनांकं यावत् सप्तचरणेषु जायमानानि सन्ति। मतगणना जून मासस्य चतुर्थ दिनांके भविष्यति। सर्वकारेण अन्तरिक्षक्षेत्रस्य कृते शतप्रतिशतं एफडीआई अनुमति प्रदान निर्णयस्य क्रियान्वयनार्थं विदेशी मुद्रा प्रबन्धन अधिनियमान्तर्गतं संशोधित नियमाः अधिसूचिताः। वित्तमन्त्रालयस्य अधिसूचनानुसारं उपग्रहादीनां निर्माणार्थं संचालनार्थञ्च शतप्रतिशतं प्रत्यक्ष विदेशी निवेशस्य अनुमतिः प्रदत्तास्ति। एतस्मिन् चतुस्सप्ततिः प्रतिशतं यावत् स्वचालितमार्गेण भविष्यति एवं चतुस्सप्ततिः प्रतिशतादधिक निवेशार्थं सर्वकारस्य अनुमतेः आवश्यकता भविष्यति। राज्यसभायाः सभापतिः जगदीप धनखड़ः अद्य संसद्भवने उच्चसदनस्य नवनिर्वाचित सदस्येभ्यः शपथवचनं दापितवान्। श्रीधनखड़ेन भीमसिंह परमार जसवंत सिंह सलाम सिंह संगीता नवीन जैन डॉ सुधांशु त्रिवेदी इत्येतेभ्य शपथवचनम दापितम्। आंध्र प्रदेशस्य विधानसभा निर्वाचनार्थमपि अधिसूचना अद्य प्रकाशिता। पंचसप्तत्यैकाधिक शत विधानसभासनेषु अग्रिम मासस्य त्रयोदश दिनांके एकस्मिन्नेव चरणे निर्वाचनं भविष्यति। अधिसूचना प्रसारणानन्तरमेव राज्ये नामांकन प्रक्रियापि समारब्धा। नामांकन प्रपूरणस्य अन्तिमा तिथिः अस्य मासस्य पञ्चविंशे दिनांके भविष्यति। मतगणना जून मासस्य चतुर्थ दिनांके भविष्यति। संस्कृतवार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.com इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीयतन्त्रांशे अपि समुपलब्धो भविष्यति। लोकसभा निर्वाचनार्थं भाजपेति दलेन अद्य त्रयोदशतमा सूचिः प्रकाशिता। महाराष्ट्रस्य रत्नागिरी सिन्धुदुर्ग संसदीय क्षेत्रात् भाजपेति दलस्य केन्द्रीयमन्त्री नारायण राणे इत्येषः दलेन निर्वाचितः। तथा च कांग्रेस दलेन अद्य ओडिशा विधानसभा निर्वाचनाय चतुर्णां प्रत्याशिनां सूचिः प्रकाशिता। भुवनेश्वर क्षेत्रात् प्रकाश चन्द्र जैना सहैव सत्यवाड़ी क्षेत्रात् मनोज रथः इत्येतौ प्रत्याशिनौ भविष्यतः। अफगानिस्तान देशे संयुक्त राष्ट्र संघस्य सहायताभियानस्य प्रमुखा विशेष प्रतिनिधिः रोजा ओटोनबायवा इत्येषा अद्य नवदिल्ल्यां विदेशमन्त्रिणा डॉ एस जयशंकरेण सह मिलितवती। अत्रावसरे अफगानिस्तानस्य वर्तमानस्थितेः विषये तयोः विचारविनिमयः अभवत्। डॉ एस जयशंकरः प्रोक्तवान् यत् भारतेन अफगानिस्तान देशाय गोधूमः, औषधानि, कीटनाशकानि, विद्यालयीय सामग्र्यः च प्रदत्तानि सन्ति। तेन एतस्मिन् सहभागितायै संयुक्त राष्ट्र संघस्य भूमिकायाः अपि प्रशंसा विहिता। कश्मीर घाट्यां गतसायं आतंकवादिभिः अनंतनाग जनपदस्य विजबेहरा क्षेत्रस्य जबलीपोरायाम् एकः व्यक्तिः भुशुण्डिकया मारितः। मृतकस्य परिचयः बिहारस्य राजुशाह रूपेण अभवत्। घटनायाः अनन्तरं आरक्षकैः सह पार्श्वस्थ चिकित्सालये नीतः। सुरक्षाबलैः आतंकवादिनाम् अन्वेषणार्थं क्षेत्रे अन्वेषणाभियानं संचाल्यते। एकस्यां विज्ञप्त्याम् उपराज्यपाल मनोज सिन्हा इत्येषः अस्याः घटनायाः निन्दाम् अकरोत्। सहैव मृतकस्य परिवाराय च स्वीय संवेदनां प्रकटितवान्। तेनोदीरितं यत् सम्पूर्णदेशः एतस्मिन् समये दुःखम् अनुभवति। सहैव तेन कथितं यत् शीघ्रमेव एतदर्थं दोषिणः प्रशासनेन दण्डयिष्यन्ते। जम्मूकश्मीरे केन्द्रशासित प्रदेशस्य मुख्य निर्वाचनाधिकारिणा जम्मूकश्मीरस्य सर्वाण्यपि मतदान केन्द्राणि तम्बाकू मुक्त क्षेत्रत्वेन घोषितानि सन्ति। एतस्मिन् मतदान केन्द्रेषु धूम्रपान मुक्त वातावरण सुनिश्चयार्थम् आग्रह कृतो वर्तते। आकाशवाण्याः जम्मू संवाददात्रा एकस्मिन् प्रतिवेदने विज्ञापितं यत् अयं निर्णयः स्वास्थ्य सेवा निदेशालय कश्मीरस्य एकस्य निर्देशस्य पालनं करोति। अयं पदक्षेपः भारत सर्वकारस्य नियमानां सहैव विश्व स्वास्थ्य संगठन फ्रेमवर्क कन्वेंशन ऑन टोबैको कंट्रोल इत्यस्यानुरूपं वर्तते। उल्लेखनीयं वर्तते यत् जम्मू कश्मीरः तादृशेषु राज्येषु केन्द्रशासित प्रदेशेषु वा प्रथमः अस्ति यत्र एतादृशः आदेशः प्रसारितः। भारतीय ऋतु विज्ञान विभागेन आगामी त्रिषु दिवसेषु ओडिशायां, तमिलनाडु राज्ये, तटीयांध्रप्रदेशे, पश्चिम बंगाले च प्रगाढ़ उष्णलहर्याः प्रभावो भविष्यतीति प्रख्यापितम्। एतेषु क्षेत्रेषु तापमानं 40 डिग्री सेल्सियस मितादपि अधिकस्य संभावना वर्तते। ऋतुविज्ञान विभागेन झारखंड, उत्तरी कोंकण, सौराष्ट्र, मध्य महाराष्ट्र, तेलंगाना, तमिलनाडु, पुडुचेरी चेत्यादिषु स्थलेष्वपि उष्णलहर्याः प्रभावो संभावितः। आकाशवाण्याः वार्ताहरैः सह संवादे ऋतुविज्ञान विभागस्य वरिष्ठ वैज्ञानिकः आरके जैनामणि जनान् एतस्मिन् सन्दर्भे अवधानतायै सम्प्रार्थितवान्। तेनोदीरितं यत् उत्तरभारते उष्णलहर्याः अधिकः प्रभावः न भविष्यति। दिल्ली, राजस्थान, पंजाब, हरियाणादिषु सामान्य वृष्टेः संभावना वर्तते। सहैव हिमाचलप्रदेशे अतिवृष्टिः सम्भाव्यते। आईपीएल क्रिकेट क्रीडायां पंजाब किंग्स दलम् अद्य चण्डीगढ़ नगरे मुम्बई इंडियंस दलेन सह स्पर्धयिष्यति इति वार्ताः।